कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमानिकम् कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते उत्तिष्ठ नरशार्दूला कर्तव्यं दैवमानिकम् उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु उत्तिष्ठोत्तिष्ठ गोविंद उत्तिष्ठ गरुड़ध्वज उत्तिष्ठ कमलाकांत त्रैलोक्यं मंगलं कुरु मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्री स्वामिनिश्रित जनप्रिय दानशीले श्री वेंकटेश दयिते तव सुप्रभातम् मातः समस्त जगतां मधुकैटभारे वक्षो विहारिणि मनोहर दिव्यमूर्ते श्री स्वामिनिश्रित जनप्रिय दानशीले श्री वेंकटेश दयिते तव सुप्रभातम् तव सुप्रभातम् अरविंद लोचने भवतु प्रसन्न मुख चंद्र मंडले विधि शंकरेन्द्र वनिताभिरर्चिते वृषशैलनाथ दयिते दयानिधे अत्रादि सप्त ऋषयः समुपास्य संध्याम् आकाश सिंधु कमलानि मनोहराणि आदाय पादयुगमर्चयितुं प्रपन्ना शेषाद्रिशेखर विभो तव सुप्रभातम् पञ्चाननाब्ज भव षण्मुखवासवाद्याः त्रैविक्रमादिचरितं विबुधास्तु वन्ति भाषापतिः पठति वासरशुद्धिमारात् शेषाद्रिशेखर विभो तव सुप्रभातम् ईषत् प्रफुल्ल सरसीरुह नारिकेल पूगद्रुमादिसु मनोहर पालिकानाम् आवाति मंदमनिलः सह दिव्यगंधैः शेषाद्रिशेखर विभो तव सुप्रभातम् उन्मील्य नेत्रयुगमुत्तम पञ्जरस्थाः पात्रावशिष्ट कदली फल पायसानि भुक्त्वा सलीलमथ केलिशुकाः पठन्ति शेषाद्रिशेखर विभो तव सुप्रभातम् तंत्री प्रकर्ष मधुरस्वनया विपञ्चा गायत्यनंत चरितं तव नारदोऽपि भाषा समग्रमसकृत्करचार रम्यम् शेषाद्रिशेखर विभो तव सुप्रभातम् भृंगावली च मकरंद रसानुविद्ध झंकार कीर्तनिनदैः सह सेवनाय निर्यात्युपांत सरसी कमलोदरेभ्यः शेषाद्रिशेखर विभो तव सुप्रभातम् योषा गणेन वरदत्नि विमध्यमाने घोषालयेषु दधिमंथन तीव्र घोषाः रोषात् कलिं विदधते ककुभश्च कुंभाः शेषाद्रिशेखर विभो तव सुप्रभातम् पद्मेश मित्र शतपत्र गतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजांगलक्ष्म्या भेरी निनादमिव बिभ्रति तीव्रनादम् शेषाद्रिशेखर विभो तव सुप्रभातम् श्रीमन्नभीष्ट वरदाखिल लोकबन्धो श्री श्रीनिवास जगदेक दयैक सिंधो श्री देवता गृह भुजांतर दिव्यमूर्ते श्री वेंकटाचलपते तव सुप्रभातम् श्रीमन्नभीष्ट वरदाखिल लोकबन्धो श्री श्रीनिवास जगतेक दयैक सिंधो श्री देवता गृह भुजांतर दिव्य मूर्ते श्री वेंकटाचलपते तव सुप्रभातम् श्री स्वामी पुष्करणिका प्लव निर्मलांगाः श्रेयोर्थिनो हर विरिंच सनंदनाद्याः द्वारे वसंति वरवेत्र हतोत्तमांगाः श्री वेंकटाचलपते तव सुप्रभातम् श्री शेषशैल गरुडाचल वेंकटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्यां आख्यां त्वदीय वसतेर निशं वदन्ति श्री वेंकटाचलपते तव सुप्रभातम् सेवा परा शिव सुरेश कृशानु धर्म रक्षोऽम्बुनाथ पवमान धनाधिनाथाः बद्धांजलि प्रविलसन् निज शीर्षदेशाः श्री वेंकटाचलपते तव सुप्रभातम् घाटीशुते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः स्वस्वाधिकार महिमाधिकमर्थयन्ते श्री वेंकटाचलपते तव सुप्रभातम् सूर्येन्दु भौम बुध वाक्पति काव्य सौरि स्वर्भानु केतु दिविशत् परिषत् प्रधानाः त्वद्दास दास चरमावधि दास दासाः श्री वेंकटाचलपते तव सुप्रभातम् त्वत्पाद धूलि भरित स्फुरितोत्तमांगाः स्वर्गापवर्ग निरपेक्ष निजांतरंगाः कल्पागमाकलनयाकुलतां लभन्ते श्री वेंकटाचलपते तव सुप्रभातम् त्वत्कोपुराग्रशिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीं परमां श्रयन्तः मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्री वेंकटाचलपते तव सुप्रभातम् श्री भूमिनायक दयादि गुणामृताभ्ये देवाधिदेव जगदेक शरण्यमूर्ते श्रीमन्ननंत गरुडादिभिरर्चिताङ्घ्रे श्री वेंकटाचलपते तव सुप्रभातम् श्री पद्मनाभ पुरुषोत्तम वासुदेव वैकुंठ माधव जनार्दन चक्रपाणे श्री वत्स चिन्ह शरणागत पारिजात श्री वेंकटाचलपते तव सुप्रभातम् कंदर्प दर्प हर सुंदर दिव्य मूर्ते कांता कुचांबुरुह कुट्मल लोल दृष्टे कल्याण निर्मल गुणाकर दिव्य कीर्ते श्री वेंकटाचलपते तव सुप्रभातम् मीनाकृते कमठकोल नृसिंह वर्णिं स्वामिन् परश्वथ तपोधन रामचंद्र शेषांश राम यदुनंदन कल्कि रूप श्री वेंकटाचलपते तव सुप्रभातम् एला लवंग घनसार सुगंधि तीर्थम् दिव्यं वियत्सरिति हेम घटेषु पूर्णम् धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठान्ति वेंकटपते तव सुप्रभातम् भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः श्री वैष्णवाः सततमर्थित मंगलास्ते धामाश्रयन्ति तव वेंकट सुप्रभातम् ब्रह्मादय सुरवरः समहर्षयस्ते संतः सनंदन मुखास्तवथ योगिवर्याः धामान्तिके तव हि मंगलवस्तु हस्ताः శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీ నివాస నిరవధ్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. లక్ష్మీ నివాస నిరవధ్య గుణైక సింధో సంసార సాగర సముత్తరణైక సేతో వేదాంత వేద్య నిజ వైభవ భక్త భోగ్య శ్రీ వెంకటాచలపతే తవ సుప్రభాతం. ఇత్థం వృషాచలపతేరిహ సుప్రభాతం. యే మానవా ప్రతిదినం పఠితుం ప్రవృత్తాః తేషాం ప్రభాత సమయే స్మృతిరింగ భాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే ఇత్థం వృషాచలపతేరిహ సుప్రభాతం. యే మానవా ప్రతిదినం పఠితుం ప్రవృత్తాః తేషాం ప్రభాత సమయే స్మృతిరింగ భాజాం ప్రజ్ఞాం పరార్థ సులభాం పరమాం ప్రసూతే